ओम नमो भगवते वासुदेवाय। अथ षड्विंशोऽध्यायः। श्रीभगवानुवाच, अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्। यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः, ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनं यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम्। अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः, प्रत्यग्धामा स्वयं ज्योतिर्विश्वं येन समन्वितम्। स एष प्रकृतिम् सूक्ष्माम् दैवीम् गुणमयीम् विभुः, यदृच्छयैवोपगतामभ्यपद्यत लीलया। गुणैर्विचित्रा सृजतीम् सरूपा प्रकृतिम् प्रजाः, विलोक्य मुमुहे सद्यः स इह ज्ञानगुहया। एवम् पराभिध्यानेन कर्तृत्वम् प्रकृतेः पुमान्, कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते। तदस्य संसृतिर्बन्तः पारतन्त्र्यम् च तत्कृतम्। भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः। कार्यकारणकर्तृत्वे कारणम् प्रकृतिम् विदुः, भोक्तृत्वे सुखदुःखानाम् पुरुषम् प्रकृतेः परम्। देवहूतिरुवाच, प्रकृतेः पुरुषस्यापि लक्षणम् पुरुषोत्तम, ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्। श्रीभगवानुवाच, यत्तत्त्रिगुणमव्यक्तम् नित्यम् सदसदात्मकम्, प्रधानम् प्रकृतिम् प्राहुरविशेषम् विशेषवत्। पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा, एतच्चतुर्विंशतिकम् गणम् प्राधानिकम् विदुः। महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः, तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे। इन्द्रियाणि दशश्रोत्रम् त्वग्दृग्रसननासिकाः, वाक्करौ चरणौ मेढ्रम् पायुर्दशम उच्यते। मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्, चतुर्धा लक्ष्यते भेदो वृत्त्यालक्षणरूपया। एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्यः, सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः। प्रभावम् पौरुषम् प्राहुः कालमेके यतो भयम्, अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः। प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवी चेष्टा यतः स भगवान् काल इत्युपलक्षितः। अन्तः पुरुषरूपेण कालरूपेण यो बहिः, समन्वेत्येष सत्त्वानाम् भगवानात्ममायया। दैवात् क्षुभितधर्मिण्याम् स्वस्याम् योनौ परः पुमान्, आधत्तवीर्यम् सासूत महत्तत्त्वम् हिरण्मयम्। विश्वमात्मगतम् व्यञ्जन् कूटस्थो जगदङ्कुरः, स्वतेजसा पिबत्तीव्रमात्मप्रस्वापनम् तमः। यत्तत्सत्त्वगुणम् स्वच्छम् शान्तम् भगवतः पदम्, यदाहुर्वासुदेवाख्यम् चित्तम् तन्महदात्मकम्। स्वच्छत्वमविकारित्वम् शान्तत्वमिति चेतसः, वृत्तिभिर्लक्षणम् प्रोक्तम् यथापाम् प्रकृतिः परा। महत्तत्त्वाद्विकुर्वाणात् भगवद्वीर्यसम्भवात्, क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत। वैकारिकस्तैजसश्च तामसश्च यतो भवः, मनसश्चेन्द्रियाणाम् च भूतानाम् महतामपि। सहस्रशिरसम् साक्षाद्यमनन्तम् प्रचक्षते, सङ्कर्षणाख्यम् पुरुषम् भूतेन्द्रियमनोमयम्। कर्तृत्वम् कर्णत्वम् च कार्यत्वम् चेति लक्षणम्, शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः। वैकारिकाद्विकुर्वाणान् मनस्तत्त्वमजायत, यत्सङ्कल्पविकल्पाभ्याम् वर्तते कामसम्भवः। यद्विदुर्यनिरुद्धाख्यम् ऋषिकाणामधीश्वरम्, शारदेन्दीवरश्यामम् सम्राध्यम् योगिभिः शनैः। तैजसात्तु विकुर्वाणात् बुद्धितत्त्वमभूत् सति, द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः। संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च, स्वाप इत्युच्यते बुद्धेर्लक्षणम् वृत्तितः पृथक्। तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः, प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता। तामसाच्च विकुर्वाणात् भगवद्वीर्यचोदितात्, शब्दमात्रमभूत्तस्मान्नव श्रोत्रम् तु शब्दगम्। अर्थाश्रयत्वम् शब्दस्य द्रष्टुर्लिङ्गत्वमेव च, तन्मात्रत्वम् च नभसो लक्षणम् कवयो विदुः। भूतानाम् छिद्रदातृत्वम् बहिरन्तरमेव च, प्राणेन्द्रियात्मधिष्ण्यत्वम् नभसो वृत्तिलक्षणम्। नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः, स्पर्शो भवत्ततो वायुस्त्वक्स्पर्शस्य च सङ्ग्रहः। मृदुत्वम् कठिनत्वम् च शैत्यमुष्णत्वमेव च, एतत् स्पर्शस्य स्पर्शत्वम् तन्मात्रत्वम् नभस्वतः। चालनम् व्यूहनम् प्राप्तिर्नेतृत्वम् द्रव्यशब्दयोः, सर्वेन्द्रियाणामात्मत्वम् वायोः कर्माभिलक्षणम्। वायोश्च स्पर्शतन्मात्राद्रूपम् दैवेरितादभूत्, समुत्थितम् ततस्तेजश्चक्षुरूपोपलम्भनम् द्रव्याकृतित्वम् गुणता व्यक्तिसंस्थात्वमेव च तेजस्त्वम् तेजसः साध्वीरूपमात्रस्य वृत्तयः द्योतनम् पचनम् पानमदनम् हिममर्दनम् तेजसो वृत्तयस्त्वेता शोषणम् क्षुत्रिडेव च रूपमात्राद् विकुर्वाणात् तेजसो दैव चोदितात् रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः कषायो मधुरस्तिक्तः कट्वम् लैति नैकधा भौतिकानाम् विकारेण रस एको विभिद्यते क्लेदनम् पिण्डनम् तृप्तिः प्राणानाप्यायनोन्दनम् तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस्त्विमाः रसमात्राद् विकुर्वाणादम्भसो दैव चोदितात् गन्धमात्रमभूत्तस्मात् पृथ्वी ग्राणस्तु गन्धगः करम्भपूतिसौरभ्य शान्तो ग्राम्लादिभिः पृथक् द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते भावनम् ब्रह्मणस्थानम् धारणम् सद्विशेषणम् सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् नभो गुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनम् विदुः तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते अम्भो गुणविशेषोऽर्थो यस्य तद्रसनम् विदुः भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते परस्य दृश्यते धर्मो यपरस्मिन् समन्वयात् अतो विशेषो भावानाम् भूमावेवोपलक्ष्यते एतान्यसंहत्य यदा महदादीनि सप्त वै कालकर्मगुणोपेतो जगदादिरुपाविशत् ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् उत्थितम् पुरुषो यस्मादुदतिष्ठदसौ विराट् एतदण्डम् विशेषाख्यम् क्रमवृद्धैर्दशोत्तरैः तोयादिभिः परिवृतम् प्रधानेनावृतैर्बहिः यत्र लोकवितानोऽयम् रूपम् भगवतो हरेः हिरण्मयादण्डकोशादुत्थाय सलिलेशयात् तमाविश्य महादेवो बहुधा निर्विभेदखम् निरभिद्यतास्य प्रथमम् मुखम् वाणी ततोऽभवत् वाण्यावन्निरथो नासे प्राणोतो घ्राण एतयोः घ्राणाद्वायुरभिद्येतामक्षिणीचक्षुरेतयोः तस्मात् सूर्यो व्यभिद्येताम् कर्णौ श्रोत्रम् ततो दिशः निर्बिभेदविराजस्त्वक् रोमस्मस्वादयस्ततः तत ओषधयश्चासन् शिष्णम् निर्बिभिदे ततः रेतस्तस्मादाप आसन् निरभिद्यत वैगुदम् गुदादपानोपानाच्च मृत्युर्लोकभयङ्करः हस्तौ च निरभिद्येताम् बलम् ताभ्याम् ततः स्वराट् पादौ च निरभिद्येताम् गतिस्ताभ्याम् ततो हरिः नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् नद्यस्ततः समभवन्नुदरम् निरभिद्यत क्षुत्पिपासे ततः स्याताम् समुद्रस्त्वेतयोरभूत् अथास्य हृदयम् भिन्नम् हृदयान्मन उत्थितम् मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिराम् पतिः अहङ्कारस्ततो रुद्रश्चित्तम् चैत्यस्ततो भवत् एतेऽभ्युत्थिता देवा नैवास्योत्थापने शकन् पुनरा विविसुखानि समुत्थापयितुम् क्रमात् वन्निर्वाचा मुखम् भेजे नोदतिष्ठत्तदा विराट् घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् अक्षिणीचक्षुषादित्यो नोदतिष्ठत्तदा विराट् श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् त्वचम् रोमभिरोषद्यो नोदतिष्ठत्तदा विराट् रेतसा शिष्णमापस्तु नोदतिष्ठत्तदा विराट् गुदम् मृत्युरपानेन नोदतिष्ठत्तदा विराट् हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् क्षुत्रिभ्यामुदरम् सिन्धुर्नोदतिष्ठत्तदा विराट् हृदयम् मनसा चन्द्रो नोदतिष्ठत्तदा विराट् बुद्ध्या ब्रह्मापि हृदयम् नोदतिष्ठत्तदा विराट् रुद्रोऽभिमत्या हृदयम् नोदतिष्ठत्तदा विराट् चित्तेन हृदयम् चैत्य क्षेत्रज्ञः प्राविशद्यदा विराट् तदैव पुरुषः सलिलादुदतिष्ठत यथा प्रसुप्तम् पुरुषम् प्राणेन्द्रियमनोधियः प्रभवन्ति विना येन नोत्थापयितुमोजसा तमस्मिन् प्रत्यगात्मानम् धिया योगप्रवृत्तया भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।